नरस्याभरणं रूपस्याभरणं गुणः, गुणस्याभरणं ज्ञानं, ज्ञानस्याभरणं क्षमा। वृथा वृष्टिस्समुद्रेषु, वृथा तृप्तस्य भोजनं, वृथा दानं समर्थस्य, वृथा दीपो दिवापि च।